अथ श्री शिवमहिम्न स्तोत्रम् पुष्पदन्त उवाच महिम्न पारन्ते परमविदुषो यद्य सदृशी सुतिर्ब्रह्मादीना मतितदवसन्ना त्वयि गिरः अथावाच्य सर्वस्वमतिपरिणामाधिगृणन् ममाप्येष स्तोत्रे हरनिरपवादः परिकरः अतीतपन्थानन् सर्वजमहिमावामनतयो व्यावृत्यायन् चकितमभिधत्ते श्रुतिरपि सकस्य स्तोतव्य प्रतिविधगुणस्तस्य विषयः अदेश्वरवाचीने पतति न मनः कस्य न वचः मरुस्मीतावाच परममृतम् निर्मितवतस्तव ब्रह्मन् किं वा गपितुर्गुरोर्विस्मयपदम् महत्वेतां वाणीम् गुणकथनपुण्येन भवतः नामेत्यरथेऽस्मिन् पुनर्मघनबुद्धिर्व्यवसिता तवैश्वर्यै यत्तज्जगदुदयरक्षा प्रलयकृत्रयीवस्तु व्यस्तम् पितृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणि निहन्तु व्याक्रोशी विदधतैहैके जडधियः किमीह किङ्कायस्त खलु किमुपाय त्रिभुवनम् किमाधारो धाता सृजति किमुपाधान इति च अतर्क्यैश्वर्ये त्वयि यदवसरदुस्थो हतभियः उदर्गोयङ्कांश्चिन् मुखरयति मोहाय जगतः अजन्मानो लोका किमवयववन्तोऽपि जगता धिष्ठातारम् किम् भवविधिरनादृत्य भवति अनीशो वा कुर्यात् भुवन जननेकः परिकरो यतो मन्दात्वाम् प्रत्यमरवर संशेरत इमे त्रयीसान्द्ययोगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमतः सख्यमिति च ऋषीणां वैचित्र्या दृजुकुटिलनापथजुषा नृणामेको गम्यत्वमसि पयसा मर्णव इव महोक्षखटवाङ्गम् परशुरजिनम् भस्मफणिनः कपालम् चेति यत्तव वरदतन्त्रोपकरणम् सुरान्तान्तामृद्धिन् दशति तु भवद्भ्रू प्रणिहिता न हि स्वात्मा रामम् विषयमृगतृष्णा भ्रमयति ధ్రువం కశ్చిత్ సర్వం సకలమపరత్వ ధ్రువమిదం పరో ద్రవ్యాద్రవ్యే జగతి గత దివ్యస్త విషయే సమస్తేప్యేతస్మిన్ పూర్వతనతైర్విస్మిత ఇవ సువన్యర్భేమిత్వా నకల నను దృష్టా ముఖరతాైశ్వర్యత్నాదుపరి విరించిర్హరిరథ పరిచ్ఛేత మనల సంభవపుష తో భక్తిశ్రద్ధా భరగురు గృణ్యాంగిషయత్వయంతేదాభ్యావతి మనోవృత్తిర్న ఫలతి అయత్నాపాద్యత్రిభువనమవైరవ్యతికర దశాద్యోయద్బాహూ నభృతరణకండూ పరవశాన శిరఃపదమశ్రేణీ రచితచరణాంభోర్భవలే స్థిరాయాత్వద్భక్తేస్త్రిపురహరవిపూర్హిరమిదం అముష్యత్వసేవా సమధిగతసారం భుజవనం